इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्यवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी मुम्बईनगरे समुद्रीय नेतृणां सम्मेलनं सम्बोधयन् वैश्विक संघर्षस्य मध्ये भारतं सामरिक स्वायत्ततायाः शान्तेः समावेशि विकासस्य च प्रतीकरूपेण वर्तते इति अकथयत्। राष्ट्रपतिः द्रौपदी मुर्मू अम्बलानगरे राफेल युद्धविमानेन उड्डयनम् अकरोत्। भारत चीन देशौ सीमा विषयान् परिहर्तुं स्थिरतां धारयितुं च विद्यमान मार्गाणाम् उपयोगम् अनुवर्तयितुं सहमतौ स्तः। छठ उत्सवानन्तरं बिहार विधानसभा निर्वाचनस्य कृते संघर्षः तीव्रः भवति। एनडीए अथ महागठबन्धन इत्येतयोः दलसमूहयोः प्रमुखाः नेतारः सभां कुर्वन्तः सन्ति। अपि च मोन्था चक्रवातः आन्ध्रप्रदेशस्य तटीयप्रदेशे समीपस्थे तेलंगानाप्रदेशे च तीव्र अवसादरूपेण दुर्बलः भवन्नस्ति। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्रमोदी अद्य अवदत् यत् समुद्रीयक्षेत्रं भारतस्य विकासस्य चालकः अस्ति। सः अवदत् यत् गतदशके अस्मिन् क्षेत्रे महत्वपूर्ण परिवर्तनं जातं, येन व्यापारस्य नौकाश्रयस्य मूलसौकर्याणाञ्च वृद्धिः अभवत्। श्रीमोदी अद्य सायंकाले मुम्बईनगरस्य नेस्को इति प्रदर्शनीकेन्द्रे इण्डिया मॉरिटेम वीक 2025 इत्यस्यान्तर्गतम् आयोजिते मॉरिटेम लीडर कॉन्क्लेव इत्येतं सभां सम्बोधयन् आसीत्। सः अवदत् यत् भारतस्य समुद्रीयक्षेत्रं महता वेगेन ऊर्जया च प्रगतिं कुर्वदस्ति। प्रधानमन्त्री अवदत् यत् अद्य भारतस्य नौकाश्रयाः विकासशीलराष्ट्रेषु सर्वाधिकदक्षतया गण्यन्ते। सः अवदत् यत् अनेकेषु विषयेषु ते विकसितविश्वस्य अपेक्षया अपि उत्तमं प्रदर्शनं कुर्वन्तः सन्ति। सः अधोरेखितवान् यत् यदा वैश्विकसागराः रुक्षाः भवन्ति तदा संसारः स्थिरदीपगृहम् अन्विष्यति। सः अवदत् यत् भारतदेशः शक्त्या स्थिरतया च तत्पात्रं निर्वोढुं सुसज्जः अस्ति। प्रधानमन्त्री अवदत् यत् भारतदेशः नौकायान निर्माणक्षेत्रे नूतनानि औन्नत्यानि प्राप्तुं प्रयत्नान् त्वरितगत्या कुर्वन् अस्ति। प्रधानमन्त्री अवदत् यत् सर्वकारेण एकशताब्देः पुरातनाः औपनिवेशिक नौवहननियमाः एकविंशतिशताब्देः उपयुक्तैः आधुनिकैः भविष्यत्कालीनैः नियमैश्च सह परिवर्त्य पुनः स्थापिताः सन्ति।
हमने 100 साल से ज्यादा पुराने कॉलोनियल शिपिंग लॉज को हटाकर 21st सेंचुरी के मॉडर्न और फ्यूचरिस्टिक लॉज लागू किए हैं। ये नए कानून स्टेट मैरिटाइम बोर्ड्स को एम्पावर करते हैं, सेफ्टी और सस्टेनेबिलिटी को बल देते हैं और साथ ही पोर्ट मैनेजमेंट में डिजिटलाइजेशन का भी विस्तार करते हैं। द मर्चेंट शिपिंग एक्ट में हमने भारतीय कानून को इंटरनेशनल कन्वेंशन के साथ ग्लोबली अलाइन किया है।
राष्ट्रपति द्रौपदी मुर्मूवर्या अद्य हरियाणायाः अम्बाला क्षेत्रे स्थितात् वायुसेना विमानस्थात्रात् राफेल इति युद्धक विमानेन यात्रां कृतवती। इयं यात्रा 25-निमेषात्मिकी आसीत्। अद्य प्रातः वायुसेनास्थात्रं सम्प्राप्य राष्ट्रपतिवर्य औपचारिकरूपेण गार्ड ऑफ ऑनर इति सम्मानम् अध्यगच्छत्। इतः पूर्वं तस्याः स्वागतसत्कारं वायुसेनाप्रमुखः अमरप्रीत सिंहः, हरियाणासंसदः मन्त्री अनिलविजः, अम्बालायाः उपायुक्तः अजय सिंह तोमरः, अन्ये अधिकारिणश्च अकुर्वन्। भारतचीनौ सीमाक्षेत्रेषु कीदृशमपि भौगोलिकविषयं समाधातुं स्थैर्यं प्रतिष्ठापयितुं च वार्तमानिकतन्त्राणाम् उपयोगं यथापूर्वं कर्तुं सहमतौ अभवताम्। एषः निर्णयः अस्य मासस्य 25-दिनाङ्के चुशुल मोल्दो सीमोपवेशनस्थले आयोजिते भारतचीनयोः सैन्याधिकारिस्तरीये 23 उपवेशने स्वीकृतः अस्ति। विदेश मन्त्रालयः एकस्मिन् वक्तव्ये प्रोक्तवान् यत् उपवेशनावधौ द्वावेव पक्षौ अस्मिन् वक्तव्ये साहमत्यं प्रकटितवन्तौ यत् तयोः सीमावर्तिक्षेत्रेषु शान्तिः सौहार्दञ्च सुनिश्चितं कृतं भवेदिति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सौम्येव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ओन् एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। छठ इत्यस्य अवकाशानन्तरं बिहार विधानसभा निर्वाचनस्य प्रचाराभियानं तीव्रतां भजते। एनडीए अथ महागठबन्धन इत्येते घटकदले परस्परम् आरोपं कुर्वन्तः मतदातृन् आकर्षयितुं सर्वविध प्रयत्नान् कुर्वती स्तः। श्वः प्रकाशितस्य महागठबन्धन इत्यस्य घोषणापत्रस्योपरि आक्षेपं कुर्वन्ती भाजपेति दलस्य नेत्री केन्द्रीयमन्त्री अन्नपूर्णादेवी पटनानगरे उक्तवती यत् बिहारस्य जनाः पूर्वमेव महागठबन्धन इत्यस्य कार्यं दृष्टवन्तः, पुनश्च न भ्रमिताः भविष्यन्तीति।
बिहार के लोग तय कर चुके हैं कि यहाँ एनडीए सरकार जो आम जन की सुरक्षा, आम जन की चिंता करती है, माँ बहन की चिंता करती है, तो निश्चित रूप से आज अगर हम देखेंगे तो लगातार पिछले चुनाव में महिलाएं आगे बढ़कर वोट करती आई है एनडीए को। एनडीए है तो हम सुरक्षित हैं, ये उनके मन में है, इसलिए कहीं कोई यहाँ वैकेंसी नहीं है, यहाँ एनडीए और सिर्फ एनडीए और लोगों का भरोसा और लोगों का विश्वास माननीय प्रधानमंत्री जी पर, माननीय नीतीश कुमार जी पर।
अपरपक्षतः महागठबन्धन इत्यस्य मुख्यमन्त्रिपदस्य अभ्यर्थीभूतः आरजेडी इति दलस्य नेता तेजस्वी यादवः अवदत् यत् घोषणापत्रे कृताः घोषणाः प्रतिज्ञाः सन्तीति।
कल हम लोगों ने जो घोषणा की है, ये प्रण हम लोगों का है, इसको हम लोग मिलकर के पूरा करेंगे। अब देखिएगा, संविदा कर्मी, आउटसोर्सिंग कर्मचारियों को तो हम लोग स्थायी करेंगे, साथ ही ओपीएस ओल्ड पेंशन स्कीम जो था वो हम लोग लागू करने का काम करे, और खास तौर पे पत्रकार भाइयों के लिए कमिश्नरी वाइज प्रेस क्लब बनाया जाएगा, तो इसमें हर एक चीज सब लोगों के लिए, और जितने सरकारी कर्मचारी उन सबको 70 किलोमीटर के अंदर के दायरे में ही ट्रांसफर पोस्टिंग हम लोग कराने का काम करें।
भाजपा पक्षस्य वरिष्ठ नेता केन्द्रीय मन्त्री च श्री अमितशाह दरभंगानगरस्य अलीपुर क्षेत्रे निर्वाचन समारोहं सम्बोधयन् अवदत् यत् एनडीए सर्वकारः मधुबनी चित्रकलायाः विभिन्नेषु अन्ताराष्ट्रिय मञ्चेषु प्रचारं कृत्वा वैश्विक मान्यतां प्रापितवान् इति। केन्द्रीय मन्त्री अथ भाजपा पक्षस्य वरिष्ठ नेता राजनाथ सिंहः दरभंगानगरस्य हयाघाट क्षेत्रे जनसभाम् अभिसम्बोधयन् अवदत् यत् राष्ट्रिय जनतादलं कांग्रेसदलञ्च सुशासनस्य प्रतिज्ञां कुर्वन्तः सन्ति, परन्तु तेषां विषये केनापि विश्वासः नैव करणीयः इति। एआईएमआईएम प्रमुखः असदुद्दीन ओवैसी इत्येषः किशनगंज नगरस्य बहादुरगंज क्षेत्रे जनसभां सम्बोधयन् अवदत् यत् तस्य दलं निकषा सीमांचल प्रदेशस्य विकासाय मार्गचित्रम् अस्तीति। यदि तस्य दलाय अस्य क्षेत्रस्य प्रतिनिधित्वावसरः प्राप्यते चेत् जलप्लावनस्य समस्यायाः समाधानकार्यं भविष्यतीति ओवैसी अवदत्। गत मध्यरात्रौ काकीनाडा नगरस्य दक्षिणदिशि नरसापुरम निकषा मछलीपट्टनम कलिंगपट्टनम नगरयोः मध्ये प्राप्यमानः मोन्था चक्रवातः इदानीं गभीर अवसाद रूपेण दुर्बलः अभवत्। इदानीं भद्राचलमित नगरात् दक्षिण दक्षिण पूर्वदिशि प्रायः 50 किलोमीटर परिमिते दूरे तटीय आन्ध्रप्रदेशे समीपस्थे तेलंगाना प्रदेशे च केन्द्रितम् अस्ति। अग्रिम सप्ताहान्तं यावत् दुर्बलतया अवसादितः भवितुम् अर्हतीति ऋतुविज्ञान विभागेन उक्तमस्ति। आन्ध्रप्रदेश सर्वकारः चक्रवात प्रभावित क्षेत्रेषु सामान्य जीवनस्य पुनस्थापनार्थं सर्वविध आवश्यकान् उपायान् कुर्वन् अस्ति। तेलंगाना राज्ये अद्य निरन्तरं द्वितीय दिवसे अपि अनेकेषु मण्डलेषु वृष्टिः जायमाना अस्ति। अन्ते क्रीडावार्तायां, पुरुष क्रिकेट क्रीडायां कैनबेरा नगरे भारत ऑस्ट्रेलिया देशयोर्मध्ये पंच क्रीडा श्रृंखलायाः प्रथमः T20 इत्याख्या अन्ताराष्ट्रिय क्रीडा अविराम वृष्ट्या स्थगिता। प्रथमशः क्रीडता भारतेन नवसंख्यकेषु ओवराख्ये कन्दुकक्षेपचक्रेषु एकस्य क्रीडकस्य हानौ 97 धावनांकाः रचिताः आसन् इति वार्ताः।